श्रेयांसि बहुविघ्नानि। इदानीं सम्यक् श्रूयते किल? भवतु, राम राम। एवं तत्र अर्जुनः पृच्छति, न च एतत् विद्मः उभयोः मार्गयोः मध्ये कतरत् गरीयः, यद् यत् वा जयेमः यदि वा नो जयेयुः। तत्र यदि वयं तान् जयेम यदि ते नः जयेयुः इति तत्र सः अर्जुनः पृच्छति, वयं न जानीमः इति। यान् हत्वा जिजीविषामः ते एव धार्तराष्ट्राः अस्माकं प्रमुखे संस्थिताः सिद्धाः तिष्ठन्ति इति सः अर्जुनः पृच्छति। तदा अस्माभिः तत्र चार्ट् दृष्टमस्ति, उभयोः आप्शन् मध्ये तत्र कतरत् गरीयः, वयं जयेम। वयं जयेम चेत् किं कर्तव्यम्? युद्धं कर्तव्यम्। युद्धं तावत् किं? क्षत्रियधर्मः। तत्र अधर्मोपरि जयं प्राप्तव्यं, तदेव क्षत्रियधर्मः, युद्धः मार्गः। यदि नः तान् ते सर्वे अस्मान् जयेयुः तर्हि किं भवति? तत्र सः चिन्तयति, मया कुलक्षे कृतं दोषः भवति, तत्र मित्रद्रोहे च पातकं भवति, केवलं रुधिरप्रदिग्धान् भोगान् मया तत्र भोक्तव्यं, तत्र तादृश अपेक्षया अहं भैक्ष्यमेव आचरामि। नौ अर्जुन इस् थिङ्किङ्ग् इन् द वार्फील्ड्, सः तत्र मध्ये विषाद अवस्थायां सः एवं चिन्तयति, बिट्वीन् दीस् टु आप्षन्स् विच् इस् बेटर्, इफ् वि गो एण्ड् फैट् देम् then we have to do the war, then whatever we are doing that is actually the kshatriya dharma and we will win over them, and if they are going to if there is an option of they coming and winning over us, why should I allow that? Because I am thinking that maya kulakshaya kritam doshah bhavati, that is I will be doing the mistake of killing all the kaurava people, after that there will be kulakshaya, by kulakshaya then the dharma becomes destroyed, once dharma becomes destroyed tatra striyah dushtah bhavanti strishu dushtasu varna sankarah jayate, there will be intermixing of admixture of castes and classes, and then there will be lot of confusion as to who should be doing what kind of duties, and then people without knowing what kind of duties they should be doing, not being proficient in their own skill sets, then there will be lot of problems in this world. Evam tatra अर्जुनः अस्माभिः दृष्टमस्ति, प्रथमाध्याये एव सः एतत् सर्वम् उक्तवान्, तत्र कुलक्षयः, धर्मस्य प्रणाशः अधर्मेनाभिभवति, कुलस्त्रियः प्रदुष्यन्ति, वर्णसाङ्कर्यं भवति, अनन्तरं पितरः तत्र पतन्ति इति सः उक्तवान्, अपि च अस्माकं सर्वेषां नरकवासः एव भवति इत्यपि सः वदति। एतावत्पर्यन्तम् अस्माभिः दृष्टमस्ति, अनन्तरं सः वदति, कार्पण्यदोषोपहतस्वभावः, पृच्छामि त्वां धर्मसम्मूढचेताः, यत् श्रेयः स्यात् निश्चितं ब्रूहि, तत् मे ते शिष्यौहं शाधि मां त्वां प्रपन्नम्। सः पृच्छति, अर्जुनः पृच्छति, हे कृष्ण, कार्पण्यदोषोपहतस्वभावः, धर्मसम्मूढचेताः भूत्वा अहं त्वां पृच्छामि किमिति? मे निश्चितं यत् श्रेयः अस्ति तद्ब्रूहि, अहं ते शिष्यः, त्वां पूर्णतया तत्र प्रपन्नोऽस्मि, मां शाधि माम् उपदिश इति सः पृच्छति। तत्र अस्माभिः दृष्टमस्ति गतकक्षायां तत्र वैशिष्ट्यं दृष्टमस्ति, कृपणः, कृपणः इत्युक्ते कः? कृपणः यः लोभी भवति, यः वित्तसञ्चयकर्ता, सः कृपणः। अन्यत् लक्षणं तावत् यो वा एतदक्षरं तत्र एतत् शरीरं तत्र मिथ्या ब्रह्मसत्य जगन्मित्या इति स यः न जानाति, यः अक्षरं परं ब्रह्म अविदित्वा अस्मान् लोकात् याति सः कृपणः। वन् हू इस् वितौट् कन्सिडरिङ्ग् वितौट् नोयिङ्ग् दट् दिस् इस् द इम्पेरिशबल् ब्रह्मन्, वि बिलाङ्ग् टु द इम्पेरिशबल् ब्रह्मन्, अ पर्सन् हू लिव्स् दिस् वर्ल्ड् एण्ड् गोस् अवे, हू डैस्, हू बेसिकलि हू कैण्ड् आफ् वेस्ट्स् द ह्यूमन् बर्त्, दुर्लभं मानुषं जन्म, तत्रापि च पौरुषत्वं, तत्रापि तत्र ज्ञानं यदस्ति तत्प्राप्यापि यः अस्मात् यः परब्रह्म साक्षात्कारं न प्राप्नोति सः कृपणः इति बृहदारण्यकोपनिषदि अपि उक्तमस्ति. अपि च अग्रे कृपणाः फलहेतवः, ये ये फलाकांक्षया तत्र कार्यं कुर्वन्ति ते सर्वे अपि कृपणाः एव. अन्ये केचन जनाः सन्ति येषां मानसिककार्पण्यं भवति, पीपल् हु आर् वेरि वेरि वीक् हार्टेड् दे आर् आल्सो टेकन् अस् कृपणाः, तादृशः एव अर्जुनः. अर्जुनस्य कार्पण्यं तावत् हृदयदौर्बल्यम् एव, सः धर्मसम्मूढचेताः वर्तते. हियर् वि सा दट् अर्जुन कृष्णार्जुनौ सर्वदा तत्र दे आर् मोर् लैक् फ्रेण्ड्स् एण्ड् दे आल्वेस् बी टुगेदर्, दे वाक् अरौण्ड् टुगेदर्, दे ईट् टुगेदर्, दे आर् वेरि गुड् फ्रेण्ड्स्. बट् एण्ड् विच् इस् वै इवन् कृष्ण हेस् टेकन् द रेस्पान्सिबिलिटि आफ् बीङ्ग् द चारियटर् फार् अर्जुन. तत्र पश्यामश्चेत् इदानीम् अर्जुनेन तत्र चिन्तितमस्ति, I am not equal to you, I am not a friend, as a friend I am not asking you, I am asking you as a student, as a disciple, please teach me. So, if I tell you something and as a teacher and if you are really as a student, will you listen to me? Am, prapannosmi, I have fully surrendered to you, therefore, please teach me. Which is where we saw the two types of sharanagatis, which is the marjara sharanagati and which is the markata sharanagati. Marjara sharanagati, fully absolute responsibility lies with the mother cat to take care of the young cat whichever is there, the small cat, kid cat which is there. It is the duty of the mother cat only to take care of it. It is not like a markata wherein the child needs to cling on to its mother and ask for sharanagati. Evam tatra marjara sharanagati asmabhi drishtamasti. This is where we also see that this is more like the mother medicine concept, wherein tatra ekada mata eka sa tatra vaidya samipe gatavati. Once the mother, one of the mother, she goes to the vaidya, to the doctor, saying that her 3 month kid, her kid, she has a kid who is only 3 months old. And the kid is not at all well, the kid is having high fever. At that time she tells to the doctor. Then the doctor gives a few medicines and tells the mother to have those medicines and tells the mother that these medicines should be had after food and should be drunk in 3 phases of the day. The mother asks, oh doctor, is this the first time are you doing any vaidyam for a kid? That is when the doctor says, the medicine is not for the kid, the medicine is for you, so that once you have the medicine, you can through your feeding whatever milk, it will reach the kid. Which is where tatra mother medicine concept we have seen, and how tatra shishyasteham shadhimam tvam prapannam. The entire responsibility of the child's health is fully with the mother only. So therefore, mother takes the medicine and the child becomes alright through the mother's food. The child becomes alright. Yevam tatra mother medicine concept asvi asmabhi drishtamasti. Anyacha tatra lagu katha vartate ativa tatra prasiddha vartate lagu katha which is generally explained to the shloka. There was once a king who went along with his minister and his 3-year-old son to one of the forest when he was going for hunting. Saha tatra gatavan. Tatra aranye saha yuddha mrigaya sarvam tatra yuddham kritva. Saha kutrapi atan asite tada. He lost his 3-year-old child there itself and he could not find him. The king searches for a long time but is not able to find the child. And with great dukkha, he comes back to his hometown. He comes back to his kingdom. And he continues his duties because somehow his Rajadharma, he has to continue, he continues it. The kid, on the other hand, the child is being brought up by a tribal king in the forest. And the tribal king takes care of this kid. He teaches him all the basic necessities, how to hunt. He gives him food, he gives him ashraya, and he teaches him all the required skill sets to survive in the forest, and he slowly grows up. As age passes off, around 20 years passes off, one day the minister who came along with the king, he is roaming in the forest and he sees this boy. Suddenly he sees the Raja Lakshanam in the boy, and he kind of asks him, "Who are you and where are you, have you come from?" The child replies, "I am the son of this tribal king, and I have been living in this forest for last 17 years. At that time, seeing the Raja Lakshanam and all the through the Samudrika Lakshana Shastram, the minister realizes that he is the son of the king who was lost in the forest. He immediately goes to the king and brings the king also, and they kind of have a conversation. The king tells, "You are my son, oh child, you are my son." But the child says, no, "I am the son of the tribal, and I have been taught all these things, and this is my duty to stay in the forest and be and protect the people here." At that time, the king again repeatedly tells him, no, "You are my son only. You come back to the forest. You come back to the kingdom. There, a great kingdom is waiting for you. Why are you struggling in this forest?" At that time, he does not listen. So the minister, what he does, he brings the tribal king also, and they discuss for some time, after which after lot of deliberations, the child realizes, the son realizes that he belongs to the king, he is the son of the king, and he goes to the kingdom itself, he goes to the Rajya and takes that place. Here if we see, this is a very small story, which is generally a very famous story, which is generally told to explain the the Maya in which we always stay. Here we just have to replace a few characters and we will understand the story better. The original king who is there, the main king, he is none other than the Bhagavan, and the minister is the Guru, and the son is the king's son is the Jivatma, and the tribal king who is there, he is our mortal parents. They are our, he represents our mortal parents in this Janma. So in this forest, which is the Bhavasagara Akhya Aranye, Yadivayam Pashyamaha, Tatra, the Jivatma, he takes quite a amount of time to be convinced by the minister Acharya, and also that is when the Paramatma, the Lord comes and tells him, the great kingdom, Swarga, Moksha, Vaikuntha is waiting for you. Paramapada is waiting for you. Why are you so struggling in this forest? That is when Tatra Saha Prichati Param, the son takes quite an amount of time to be convinced after having discussed with his parents, understanding from the tribals, from the tribal king, saying that okay, he was taken from him, he was only being adopted by him and brought up by him, and also the minister, who is in the form of Acharya, he unites all the three people and unites the Jivatma to the Paramatma. Tadrsha avasthayam idanim api asmakam arjunaha asti, saha idanim na janati, saha kaha, saha kim karoti, saha kimartham evam chintayati, iti saha na janati. At that time, Krishna, in the form of Upadeshaka here, he shows that the other Krishna, which is the absolute Parabrahman, tatra gantavyamiti saha suchayati. So this shloka helps us to understand the avastha, hriday durbalyam, whatever Arjuna is going through, and whatever dharma sammuda chetaha, which he is undergoing. We just have a small chart here, which will explain the various levels which Arjuna is telling now. Prathamataya tatra shishya, on one hand we have the student, what kind of students are there, and depending on that, what are the roles of the teacher. Tatra guroho margadarshakatvam katham bhavitavyam iti atra darshitam asti. Prathamataya tavate, he first tells, karpanya doshopahata swabhavah dharma sammuda chetaha amasmi idanim. If he just tells that I have some confusions in my mind, Oh Guru, I have a few confusions in my mind. Evam saha prichati chete, the Guru's, what is the role of a Guru? He is free to answer whether he needs to remove the confusion or not. Saha tatra muktaha asti. द नेक्स्ट लेवल इज हे गुरो कार्पण्य दोषोपहत स्वभाव धर्म चम्मूड चेता अहमत्र उपस्थित तदर्थम यत निश्चित श्रेय तत् ब्रूहि प्लीज टेल मी व्हाट इज रियली गुड फॉर मी देन देर इज अ ड्यूटी फॉर द टीचर टू आंसर अपि च द नेक्स्ट लेवल द स्टूडेंट व्हेन ही गोज एंड टेल्स I am not asking just like this as a way passer, as a person passer by. I am not asking you. Aham te shishyaha. I am your disciple. So please tell me when the shishya comes in this bhava, then the teacher has to surely guide him. And finally, when the shishya finally comes to a fully surrender, he says, Tvam prapannam. I am completely surrendering on to you. Then the teacher takes absolute responsibility of the student, and then it is the teacher's responsibility to take care and remove all the doubts in the minds of the student. So these are the various levels how a student generally is, and at each of the level what role the teacher takes and how the jnanam or the vidya is imparted. Evam pashyamaschet finally aham te shishyah tvam prapannam tadartham तत्र माम शाधि माम धर्मतत्वम माम ज्ञानतत्वम उपदिशा इति सह पृच्छति. सो जस्ट अ स्मॉल चार्ट सो दैट वी कैन रिमेंबर व्हाट लेवल विच वी आर एंड हाउ वी नीड टू गो टू विच एवर लेवल वी आर एंड टू द विच नेक्स्ट लेवल वी नीड टू गो सो दैट इट विल बिकम द एब्सोल्यूट रेस्पॉन्सिबिलिटी ऑफ द आचार्य और द गुरु हुअर अवर कुल आचार्य अवर कुल गुरु हुअर इज देर एट वॉट लेवल ऑफ सरेंडर इफ वी गो वी कैन गेट द एब्सोल्यूट ज्ञान दिस इज जस्ट अ रिप्रेजेंटेशन टू अंडरस्टैंड दट. पश्यामः इदानीं अष्टम श्लोकं पश्यामः. नहि प्रपश्यामि ममापनुद्यात् पुनः वदतु. यच्छोक मुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धम् राज्यं सुराणामपि चाधिपत्यम् श्लोकं द्विवारं पठन्तु. पदच्छेदं पश्यन्तु. कर्तृ कर्म क्रिया अन्वयम् अन्वेषणं करोतु. कर्तृकर्म क्रियां चिन्तयतु. वदतु. अहं प्रपश्यामि समीचीनम्. अहं प्रपश्यामि भवतु. किं न प्रपश्यामि इति पृष्टे सति किं न प्रपश्यामि. द बिगर सेंटेंसेस अहम् एंड अहम् न प्रपश्यामि. ऐ डू नॉट सी व्हाट ऐ डू नॉट सी. किं न प्रपश्यामि. यत् मम इन्द्रियाणाम् उच्छोषणम् शोकम् अपनुद्यात्. यत् मम शोकम् सुराणामाधिपत्यम् अपि तद् सम्यक् तत्र उपविशति. तत्र वाक्यं कर्तव्यम् यत् मम शोकम् अपनुद्यात्. यत् मम शोकम् अपनुद्यात् तत् न प्रपश्यामि. वाट कैन रिमूव माय ग्रीफ दैट आई एम नॉट सीइंग हियर. थ्रू वाट आल्सो? थ्रू गेटिंग द राज्यम सुराणामपि चाधिपत्यम. तत्र राज्यम प्राप्तेपि तत्र शोक मम शोकम नष्टम न भवति. येन कारणेन नष्टम भवति तद् न प्रपश्यामि. देयर आर टू क्रियापदास, सो लेट अस सी दैट. अस्मिन् भूमौ, अस्मिन् भूमौ असपत्नम रुद्धम. असपत्नम तत्र असपत्नम, सपत्नम इज सपत्नीत्वम. सपत्नीत्वम इज तत्र स्पर्धा, स्पर्धा यत्र अस्ति, वेर देयर इज अ कॉम्पिटिशन विच इज देयर, तादृश सपत्नीत्वम यदस्ति. सपत्रम एतत् असपत्नम, प्रतिस्पर्धी रहितम, विदाउट एनी कॉम्पिटिशन. दट काइंड ऑफ रुद्धम, रुद्धम रुद्धि, रुद्धि समृद्धि इति एतत् वाक्यमस्ति. रुद्धि धन धान्यादिभिः समृद्धम यदस्ति, तादृश राज्यम अपि च सुराणाम आधिपत्यम अवाप्यापि, सुराणाम आधिपत्यम प्राप्यापि. गेटिंग ऑल दीज थिंग्स, फर्स्ट इज इन दिस अर्थ आई गेट तत् असपत्नम रुद्धम, आई गेट एन अनराइवल्ड फ्लरिशिंग राज्यम, एंड ऑल्सो सुराणामपि आधिपत्यम, आई गेट मास्टरी ओवर इवन द गॉड्स. तत् सर्वं प्राप्यापि मम इंद्रियाणाम उच्चोषणम शोकम, मम इंद्रियाणाम शोषकम तत्र यत्र निर्द्रवीकरणम शोकम दुःखम यदस्ति तत् यत् दूरीकुर्यात् यत् अवनुद्यात् तत् न प्रपश्यामि. ओ कृष्ण, तत्र मम मनः कार्पण्यदोषोपहत स्वभावः धर्मसम्मूढचेताः वर्तते, एंड आई डोंट नो व्हाट इज बेटर. आई हैव फुल्ली बिकम योर डिसाइपल एंड आई एम कंप्लीटली सरेंडर्ड इन यू. प्लीज इंस्ट्रक्ट मी हियर व्हाट इज माय स्टेट ऑफ माइंड. आई डोंट इवन नो व्हाट इज दैट थिंग विच कैन रिमूव माय शोक. व्हाट इज दिस शोक डूइंग टू मी? इट इज ड्राइंग अप माय तत्र मम अंगांगानि यत् सन्ति. मुखं च परिशुष्यति, वी हैव सीन दैट बिफोर. मुखं च परिशुष्यति, वेपतुश्च शरीरे मे रोमहर्षश्च जायते. तादृश शोकम यत् अपनुद्यात्, दट काइंड ऑफ शोकम, इंद्रियाणाम उच्चोषणम शोकम यत् अपनुद्यात्, दट विच विल रिमूव, यत् दूरीकुर्यात् तद् वस्तु अहम् न प्रपश्यामि. तत् दट मार्गः, दट वॉट एवर दट पाथ विच इज देर, आई एम नॉट एबल टू सी दट. इवन इफ आई गेट दीस असपत्नम वृद्धम राज्यम एंड अनकॉम्पिटेंस विदाउट नॉन कॉम्पिटिशन प्रेजेंट काइंड ऑफ किंगडम, अभी च सुराणाम आधिपत्यम, एंटायर लॉर्डशिप ओवर इवन गॉड्स, तत्र सुराणामपि आधिपत्यम प्राप्ते सत्यपि अवाप्यापि तत् प्राप्यापि मम इंद्रियाणाम शोकम यत् दूरीकरोति यत् अपनुद्यात् तत् अहम् न पश्यामि. आई एम नॉट सीइंग दट विच कैन दट एक्टिविटी बाय डूइंग विच ऑल माय शोक माय ग्रीफ इज गोइंग टू बी रिमूव्ड, एंड देन सो दैट दिस एक्ट ऑफ मी किलिंग देम एंड टेकिंग दिस राज्यम बिकम्स वेरी करेक्ट एंड वेरी राइट. तत् सः पृच्छति. पश्यामः पद पदार्थं, पश्यामः पद परिचयं, पश्यामः भूमौ, भूमि शब्दः इकारांत स्त्रीलिंग सप्तमी एकवचन. भूमौ इन दिस अर्थ, अस्मिन् भूमौ, अस्मिन् महीतले वसुधायां असपत्रम, असपत्रम स्पर्धा रहितत्वं, तत्र प्रतिस्पर्धी राहित्यं यत्र अस्ति, अनराइवल्ड. अकारांत नपुंसकलिंग द्वितीयाभक्ति एकवचनम. रुद्धं राज्यम, ऑल थ्री आर कनेक्टेड वर्ड्स. असपत्रम रुद्धं राज्यम, असपत्रम विदाउट कॉम्पिटिशन, रुद्धम फुल्ली फिल्ड समृद्धम यदस्ति, तादृश राज्यम किंगडम च सर्वम अकारांत नपुंसकलिंग द्वितीयाभक्ति एकवचनम च अव्ययम. सुराणाम आधिपत्यम अवाप्यापि, सुराणाम आधिपत्यम, सुराणाम देवतानाम उपरि आधिपत्यम स्वामित्वम प्राप्यापि अवाप्यापि आधिपत्यम द्वितीय एकवचन अवाप्य तत्र लबन्ताव्ययम् उपसर्ग वाप धातु लेप प्रत्ययस्य उपयोगेन अवाप्य प्राप्यापि अव्ययम्. मम, मम षष्ठी एकवचनम. इंद्रियाणाम उच्चोषणम शोकम, इंद्रियाणाम उच्चोषणम दट विच इज ड्रइंग अप और विच इज द रीजन फॉर विच इज द काज ऑफ ड्रइंग ऑफ माय सेंसेस. मम इंद्रियाणाम उच्चोषणम यदस्ति, उच्चोषणम द्वितीयाभक्ति एकवचन. इंद्रियाणाम षष्ठी बहुवचन. शोकम दुःखम द्वितीयाभक्ति एकवचन. तत् यत् अपनुद्यात् यत् 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 कर्म यत् कार्यम यद् यद् पन्थाः यद् मार्गः वर्तते यत् दूरीकुर्यात् अपनुद्यात् यत् समूलं नाशयति तादृश मार्गं वा कार्यं नहि प्रपश्यामि मया न दृश्यते अपनुद्यात् लट्लकार उत्तमपुरुष एकवचनं तत्र प्रपश्यामि लट्लकार उत्तमपुरुष एकवचनं तत्र क्रियापदम् अतीव सरलं वर्तते व्याकरणभागं पश्यामश्चेत् पूर्णतया एकवारम् अर्थं पश्यामः अस्मिन् भूमौ मया अस्मिन् भूमौ अस्यां निष्कंटकं समृद्धं राज्यं प्राप्येत देवानामपि आधिपत्यं यदि लभ्येत यदि प्रायशः लभ्येत तथापि इन्द्रियाणां विशोषकः अयं शोकः गुरुबान्धवादीनां हननेच्छया समुत्पन्नः येन दूरी भवति तादृशं किमपि कर्म न प्रपश्यामि दट् एक्ट् बै विच् आल् दीस् शोका विल् बि रिमूव्ड् आल् दीस् यत् यत् सर्वं तत्र मया तत्र पापं क्रियते तस्य प्रायश्चित्तरूपं यत् कार्यं भवति तत् न प्रपश्यामि ऐ एम् नाट् सीयिङ्ग् दट् इति सः वदति सन्धिभागं पश्यामः मम अपनुद्यात् मम अपनुद्यात् दीर्घसन्धिः यत् शोकं यत् शोकं यत् प्लस् शोकं यद् शोकं भवति अनन्तरं यत् शोकं भवति श्चुत्वसन्धिः छत्वसन्धिः भवति भूमावसपत्नं भूमौ प्लस् असपत्नम् औ भवति औ इत्युक्ते अय् अय् अव् आव् भवति भूमावसपत्नमृद्धं भवति यान्तावान्तादेशसन्धिः चाधिपत्यं चाधिपत्यं दीर्घसन्धिः असपत्नं सपत्नः न विद्यते यस्य तत् असपत्नं अस्य सपत्नः स्पर्धा न विद्यते नास्ति यस्य तत् असपत्नं बहुव्रीहिः यस्य यस्य तत् इति परं तत्रापि नै बहुव्रीहिः असपत्नम् इति उच्छोषणम् उत् उपसर्गपूर्वक शुष् धातुः ल्यु प्रत्ययः अव् आप् ल्यप् अवाप्य राज्यं राज्यम् इति यदस्ति राज्ञः कर्म राज्यं राज्ञः कर्म भावः यदस्ति राज्ञः इदं राज्यं राज्ञः कर्म भावार्थकं स्वीक्रियते चेत् राज्ञः राज्ञः भावः राज्यं राज्ञः कर्म राज्यम् एवं कर्मार्थे वा भावार्थे अपि स्वीकर्तुं शक्यते राज्यम् इति आधिपत्यम् आधिपत्यम् अधिपति प्लस् यक् तत्र अधिपतित्वं तस्य भावः अधिपतेः भावः आधिपत्यम् इति भवति यक् प्रत्ययस्य आदेशः अस्ति एवम् अस्माभिः दृष्टमस्ति एकवारं तत्र श्लोकं पठामः अग्रिमश्लोकस्तावत् अतीव सरलं वर्तते तत्र पश्यामः एकवारम् अष्टमश्लोकं पठामः अनन्तरं नवमश्लोकमपि एकवारं पश्यामः न हि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणमिन्द्रियाणाम् अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् एकवारं नवमश्लोकं पश्यामः सञ्जय उवाच एवमुक्त्वा हृषीकेशम् गुडाकेशः परन्तप नयोत्स्य इति गोविन्दम् उक्त्वा तूष्णीं बभूवः तत्र नवमश्लोकार्थं तत्र प्रेसेण्टेशन् न कृतमस्ति तथापि श्लोकम् एकवारं पठन्तु पदच्छेदं पश्यन्तु कर्तृकर्मक्रियान्वेषणम् एकवारं वदन्तु नवम दशम श्लोकौ सरलौ वर्तेते एवं किञ्चित् शीघ्रं कर्तुं शक्यते अहम् योत्स्ये तावदेव सरलं वर्तते पश्यामः एवं उक्त्वा हृषीकेशं गुडाकेशः परन्तप न योत्स्य इति सः गोविन्दं उक्त्वा तूष्णीं बभूव परन्तपः किं कृतवान् यद्यपि अस्य नामधेयः परन्तपः परन्तपः गुडाकेशः अर्जुनः तत्र केवलं विशेषणं परन्तपः पूर्वमेव दृष्टमस्ति शत्रुपीडक शत्रुमारक गुडाकेशः गुडाका गुडाका निद्रा गुडाकेशः निद्रायाम् उपरि यः ईशत्वं यः तत्र कण्ट्रोल् प्राप्तवान् वन् हू हेस् फुल् कण्ट्रोल् ओवर् हिस् स्लीप् गुडाका ईशः परन्तपः अर्जुनः हृषीकेशं हृषीकेशं हृषीकाणि इन्द्रियाण्याहुः हृषीकेशः इन्द्रियेशः यः कृष्णः अस्ति सः एवं तं प्रति अर्जुनः एवम् उक्त्वा एवं सर्वं तत्र विषादकारणं सर्वम् उक्त्वा अनन्तरं सः गोविन्दं प्रति वदति किमिति न योत्स्ये अहं न योत्स्ये इति सः उक्त्वा सः इति ह उक्त्वा ह इति तत्र पदमस्ति ह इत्युक्ते ध्रुवरीत्या अवश्यम् अवश्यं न योत्स्ये इति उक्त्वा सः तूष्णीं बभूव सः तत्र तूष्णीं बभूव तावदेव अतीव सरलं वर्तते अतः किञ्चित् शीघ्रमपि गन्तुं शक्यते गतवासरे अपि एकवारं नोट्स् पश्यामः पुनः एकवारं श्लोकं वदामि नवमश्लोकं स्वपुस्तकं पश्यन्तु सञ्जयः वदति धृतराष्ट्रं प्रति सञ्जयः धृतराष्ट्रम् उवाच किमिति अर्जुनः गुडाकेशः परन्तपः अर्जुनः हृषीकेशं हृषीकेशं कृष्णं प्रति एवम् उक्त्वा एवमित्युक्ते तत्र पूर्वश्लोकाः ये सन्ति तत्र तान् श्लोकान् उक्त्वा फैनलि अनन्तरं किं वदति सः गोविन्दं प्रति सः गोविन्दं प्रति अहं न योत्स्ये अहं युद्धं कर्तुं नेच्छामि अहं युद्धं न करिष्ये इति सः ह इति तत्र पदमस्ति इति अक्षरमस्ति ह इति अक्षरमस्ति तत् किं द्योतयति अवश्यम् इति सः निश्चयरूपेण तेन निश्चितम् इति दर्शयति तत् निश्चयम् उक्त्वा सः तूष्णीं बभूव न योत्स्य इति गोविन्दम् उक्त्वा सः तूष्णीं बभूव व्याकरणभागं सर्वं सरलं वर्तते अनन्तरम् एवमेव दशमश्लोकम् एकवारं पश्यामः तत्र आगामि कक्षायां पुनः एकवारं तत्र नोट्स् पश्यामः यद्यपि परं दशमश्लोकमपि एकवारं पश्यामः तमुवाच हृषीकेशः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः तत्र दशमश्लोकमपि एकवारं दृष्ट्वा समापनं कुर्मश्चेत् आगामिकक्ष्यातः अशोच्यान् अन्वशोचस्त्वम् इति भगवतः गीतावाक्येन प्रारम्भं कर्तुं शक्यते दशमश्लोके एकवारं कर्तृकर्मक्रियां पश्यन्तु दशमश्लोके एकवारं कर्तृकर्मक्रिया वदतु पदच्छेदः तम् उवाच हृषीकेशः प्रहसन्निव भारत सेनयोः उभयोः मध्ये विषीदन्तम् इदं वचः पदच्छेदः हृषीकेशः उवाच वेरि गुड् सम्यक् अस्ति हृषीकेशः उवाच हृषीकेशः उवाच इति सञ्जयः धृतराष्ट्रं प्रति उवाच तावदेव हृषीकेशः उवाच कीदृशः हृषीकेशः कुत्र उवाच कं प्रति उवाच हृषीकेशः कम् उवाच हूम् डि डीटेल् तं कं विषीदन्तम् अर्जुनं तं प्रति उवाच कथम् उवाच प्रहसन् इव उवाच प्रहसन् इव लाफिङ्ग् अट् हिम् द आल् नोयर् कृष्ण हेविङ्ग् सीन् आल् दीस् लेम् एक्स्क्यूसस् प्रोवैडेड् बै अर्जुन सः सर्वं श्रुत्वा दृष्ट्वा सः प्रहसन् इव एतादृशवाक्यम् उवाच हे भारत अत्र भारत इति पदमस्ति किल कम् अन्वयति अन्वेति दिस् द वर्ड् भारत ईस् यूस् फार् हूम् नैव अर्जुनं प्रति प्रायशः न भवति. एकवारं चिन्तयतु, हे भारत, हे भासिरथ धृतराष्ट्र इति भवति प्रायशः. एकवारं चिन्तयतु, तत्र पश्यतु, हे भारत संजयः धृतराष्ट्रं प्रति वदति, हे भारत हृषीकेशः उभयोः सेनयोः मध्ये वर्तमानं विषीदन्तं तम् अर्जुनं प्रति प्रहसन्निव इदं वाक्यं वचः उवाच. भवतु भवतु, तत्र उपः अत्र क्लेशः नास्ति. तत्र हे भारत, हे धृतराष्ट्र, हृषीकेशः कृष्णः उभयोः सेनयोः मध्ये वर्तमानम् अर्जुनं प्रति विषीदन्तम् अर्जुनं प्रति प्रहसन्निव किञ्चित् तत्र स्मयवदनः स्मितमुखः, तत्र स्मितसुन्दर यः कृष्णः अस्ति सः प्रहसन्निव हसन्निव सः इदं वाक्यम् उवाच, इदं वाक्यं वदति इति तत्र समाप्य आगामिकक्षायां तत्र उपदेशस्य गीतोपदेशस्य प्रथमं श्लोकं पश्यामः. मोस्ट् आफ् द कमेण्टेटर्स् लैक् शङ्कराचार्य, मध्वाचार्य, रामानुजाचार्य हाव् जस्ट् गिवन् एन् इन्ट्रोडक्षन् टु भगवद्गीता इन् देर् व्याख्यान एण्ड् देन् दे स्टार्ट् वित् दिस् श्लोक, द 11th श्लोक, अशोच्यान् अन्वशोचस्त्वम्. दे स्टार्ट् देर् तत्र व्याख्यानं फ्रम् दे स्टार्ट् देर् व्याख्यानं फ्रम् द 11th श्लोक. तादृश उत्तमोत्तम श्लोकेन आगामिकक्षां प्रारम्भं कुर्मः. तावत्पर्यन्तं सर्वेभ्यः धन्यवादाः. यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्ममा गुरुरेव गतिर्गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. सर्वेभ्यः राम राम राम. धन्यवादाः. आगामिकक्षायां पुनर्मिलामः.